नमस्ते नमस्ते पुरुषं चाद्यं ईश्वरं प्रतिते परम् अलक्ष्य सर्वभूतानां अन्तर्बहिरवस्थितम् माया जवनिकाच्छन्य मज्ञाधो खजमव्ययम् न लप्सते मूलधृष्यां नटो नाट्यधर्मजथा तथा परमहंसानां मुनीनां अमलात्मनां तथा परमहंसानां मुनीनां अमलात्मनां भक्तियोगविधानार्थं कथं पश्येम स्त्रियं नमस्ते पुरुषं चाद्यं ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् कृष्णाय वासुदेवाय देवकी नन्दनाय च कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रये नमस्ते पुरुषं चाद्यं ईश्वरं प्रतिते परम् अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् यथा ऋषिकेशं खलेन देवकी कंसेन रुध्याति चिरं सुचार्चितां विमोचिता हंच सहात्मजा विभो तयैव नाथेन मोहो विपद्गणां विषाण महाग्ने पुरुषाददर्शन विषाण महाग्ने पुरुषाददर्शनम् असत्सभाय वनवास क्लेशतम् निधेनेकमहारथास्ततो निधेनेकमहारथास्त्रतुं मृधे मृधेनेकमहारथास्त्रतुं द्रौणस्त्रतोश्चात्म हरे भी रक्षिता मृधे मृधेनेकमहारथास्त्रतुं द्रौणस्ततोष्टात्म हरेभिरक्षितां नमस्ते पुरुषस्ताद्यं ईश्वरं प्रकृते परं अलक्षं सर्वभूतानां अन्तद्बहिरवस्थितम् विपदाः सन्तु तासस्सं तत्र तत्र जगद्गुरु भवतद्दर्शनज्ञा स्यात् आपुनार्भवदर्शन जन्मैः सज्जसुतश्रीभिः रेधमानमदापुमान् नैवार्हता भीधातुं वै तामकिञ्चन गोचरम् नमस्ते पुरुषश्चाद्यं विश्वं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिः नमस्थितम् नमो किञ्चन वित्ताय निर्वृत्त्या गुणवित्तये आत्मरामाय शान्ताय कैवल्यपतये नमः नमस्ते पुरुषसाध्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् मन्येतां कालमीशानम् अनादिनिधनं विभुं समं चरन्तं सर्वत्र भूतानां जन्मिथ कलिः न वेद कश्चिद्भगवं चिकीर्षितं न वेद कश्चिद्भगवं चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् तवेहमानस्य नृणां विडम्बनं न जस्य कश्चिद्दयितोऽस्ति कर्हिषि दृश्यश्च जस्मिन् विषमामतीर्णाम् जन्म कर्म च विश्वात्मन् जन्म कर्म च विश्वात्मन् नजस्य कर्तुरात्मनः तीजङ्गनि शिशुर्जादशु तदत्तन्तविडम्बनम् जन्म कर्म च विश्वात्मन् न जस्या कर्तुरात्मनः तीजङ्गशिशुजादशु तदन्तन्तविडम्बनम् नमस्ते पुरुषसाध्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् नमस्ते पुरुषसाध्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तद्बहिरवस्थितम् गोप्या ददेतै कृतगासिदाम तावन् जाते दशाश्रुकनिलान् जनसम्भ्रमाक्ष्यम् गोप्या ददेतै कृतगा भयभावनयास्थितस्य विमोहयति रपीचद्विभेति वक्त्रं निमीय भयभावनया स्थितस्य सामां विमोहति रतिजद्विभेति। नमस्ते पुरुषात्याज्ञम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम्। नमस्ते पुरुषं चाद्यं नमस्ते पुरुषप्याद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्। केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये यदा प्रियशान्नवाये मलयसेव चन्दनम्। केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये यदो प्रियशान्नवाये मलयसेव चन्दनम्। अपरे वसुदेवस्य देवक्यां जाचितो भगात् अजस्तमस्य क्षीमाय बधाय च शरद्विषाम्। भारावतरणायन्नि भुवो नाभुवो दधौ क्षीरन्त्या भूरिभारेण जातो यात्मा भूयार्थितम्। भवेस्मीं क्लिश्यमानानाम् अविद्या कामकर्मभिः श्रवणस्मरणार्हाणि करिष्यन्ति केचन। नमस्ते पुरुषताद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्। चिन्नन्ति गायन्ति गिनन्तभीक्ष्णशा सिन्दन्ति गायन्ति गिनन्तभीक्ष्णशं स्मरन्ति नन्दन्ति तवेहितं जनः। त एव पश्यन्त चिरेण तावकं मम प्रवाहो परमं पदाम्बुजम्। त एव पश्यन् तचिरेण तावकं मम प्रवाहो परमं पदाम्बुजम्। अपादनस्तं सकिते हितप्रभो जिहासशीशी स्वेदोनुजीविना जीषां न चान्यं भवत पदाम्बुज। परायणं राजसंयोजितां हसम् अपाद्यनस्तं सकृते हितप्रभो जिहासशीशी सुहृदोनुजीविना येषां न चान्यं भवतो पदाम्बुज। परायणं राजसुयोजितां हसम् केवलं नामरूपाभ्यं यदुभिः सह पाण्डवा भवतो दर्शन ज्योरि ऋषिकाणां निवेशितु नेयं सविष्यति तत्र जथेदानीं गदाधरं तत्पादैरङ्किता भाति सलक्षणं विलक्षतं इमे जनपदा स्मृध्यां सुपक्कौ सद्भिरुधं वनाद्री नदुदुन्नन्तं छेदन्ते तव वीक्षितां अथो विशेषविश्वात्मन् विश्वामुते सकेष्मे स्नेहोपासमिमां छिद्धि वीरं पाण्डुषु वृष्णिषु त्वयि मे नन्ना विषया मथुर्मधुपते सखी रतिमोद्वहता दध्या गङ्गो वौ गामुदन्नति श्रीकृष्ण कृष्ण सखा वृष्णस्वभावनिध्रु ग्राजन्नवंशदहनानपवर्गवीर्यं गोविन्दं गोदिरासुरार्थीया हरावतार योगेश्वराखिलगुरो भगवन् नमस्ते श्रीकृष्णा कृष्ण सख विष्णासाभावनिध्रु राजन्नवंश दहना नववर्गवीर्यं गोविन्द गोदिजसुरार्थी रावतारं योगेश्वर अखिलगुणो भगवन् नमस्ते नमस्ते पुरुषं ताद्यं ईशरं प्रकृते परं मलक्ष्यां सर्वभूतानां अन्तर्बहिरवस्थितं नमस्ते पुरुषस्ताद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् कृष्णाय वासुदेवाय देवकीनन्दनाय च कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमो पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये नमस्ते पुरुषस्याद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितं नमस्ते पुरुषस्ताद्यम् ईश्वरं प्रकृते परम् अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम्